इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। अद्य नवदिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी, इण्डोनेशिया देशस्य राष्ट्रपतिः प्रबोवो सुबियान्तो च मन्त्रयेयाताम्। उभौ नेत्रारौ द्विपाक्षिक सन्धेः विस्तृत समीक्षां करिष्यतः। सममेव परस्परहितस्य क्षेत्रीय वैश्विक विषयेषु चर्चां च करिष्यतः। वार्तायाः अनन्तरम् अनेकेषु सन्धिपत्रेषु हस्ताक्षराणि भवितुम् अर्हन्ति। अवधेयं यत् राष्ट्रपतिः सुबियान्तो भारतस्य चतुर्दिवसीयायां यात्रायां गुरुवासरे नवदिल्लीम् अगमत्। अद्य प्रातः राष्ट्रपति भवनस्य अनुत्तम भागे इण्डोनेशिया देशस्य राष्ट्रपतिः वर्यस्य औपचारिकं स्वागतं भविता। सः राजघाट इत्यत्र महात्मा गांधी वर्यस्य समाधौ श्रद्धांजलिं च समर्पयेत्। राष्ट्रपतिः प्रबोवो श्वः कर्तव्यपथे 670वें गणतंत्र दिवसस्य समारोहे मुख्यातिथिः भविष्यति। राष्ट्रपति रूपेण श्री प्रबोवो वर्यस्य प्रथमा इयं भारतदेशस्य यात्रा अस्ति। भारत इण्डोनेशिया देशयोर्मध्ये सहस्रवर्षेभ्यः अपि अधिकाः मैत्रीपूर्णाः सम्बन्धाः सन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य गणतन्त्रदिवसस्य पूर्वसन्ध्यायां राष्ट्रं सम्बोधयिष्यति। अयम् अभिभाषणः सायं 7 वादने आकाशवाण्याः दूरदर्शनस्य च सर्वास्वपि वाहिनीषु हिन्दीभाषायां प्रसारितः भवेत्। तदनन्तरम् आंग्लभाषायां च प्रसारणं भविता। दूरदर्शने हिन्दी आंग्लभाषयोः भाषणस्य प्रसारणं तदनन्तरं दूरदर्शनस्य क्षेत्रीय वाहिनीभिः प्रादेशिकभाषासु प्रसारितं भविता। आकाशवाणी अपराह्णे 9:30 वादने प्रादेशिक भाषायाः संस्करणानि स्वीये प्रादेशिक अन्तर्जालीय माध्यमेषु प्रसारयिष्यति। अद्य अशेषे हि देशे 15वां राष्ट्रिय मतदाता दिवसः आचर्यते। राष्ट्रपतिः द्रौपदी मुर्मू नवदिल्ल्यां मुख्य कार्यक्रमे भागं गृह्णीयात्। केन्द्रीय विधि न्याय मन्त्री अर्जुन राम मेघवालः, मुख्य निर्वाचन आयुक्तस्य अधिकारिणः च अस्मिन् कार्यक्रमे उपस्थिताः भवितारः। अस्य वर्षस्य विषयः मतदानम् एव किमपि नास्ति, अहं निश्चप्रचं मतदानं करोमि, नथिंग लाइक वोटिंग, आई वोट फॉर श्योर इति अस्ति। विषयोऽयं जनान् मतदानं कर्तुं प्रोत्साहयति। राष्ट्रपतिः मुर्मुः राज्य मण्डल अधिकारिणां कृते सुगमं निर्वाचनं सुनिश्चेतुम् अनुकरणीय प्रयासानां कृते सर्वोत्तम निर्वाचनाचरण पुरस्कारान् प्रदास्यति। रक्षामन्त्री राजनाथसिंहः ह्यः नवदिल्ल्यां युद्धक्षेत्र निरीक्षण प्रणाल्याः संजय इत्येतस्याः शुभारम्भम् अकरोत्। इदं हि निरीक्षण प्रणाली युद्धक्षेत्रस्य पारदर्शितां संवर्धयिष्यति, अथ च भविष्यस्य युद्धक्षेत्राणि प्रवर्तयिष्यति। यतोहि इदं हि खलु अत्याधुनिक संवेदक यन्त्रैः अत्याधुनिक विश्लेषण यन्त्रैश्च संवलिता अस्ति। प्रणाली एषा अस्मिन् वर्षे मार्च मासात् आरभ्य भारतीय सेनायां त्रिषु चरणेषु सम्मिलिता भविष्यति। रक्षामन्त्रालयानुसारि अनया प्रणाल्या गुप्तचर विभागाः तत्सम्बद्धानि अन्वेषण कार्याणि इतोऽपि संवर्धयिष्यन्ते। अपि च भारतीय सेनायां दत्तांशस्य आन्तर्जालिक सञ्चालनस्य च दिशि नवीनः पदक्षेपो भविष्यति। उत्तरप्रदेशस्य मेला प्रशासनेन महाकुम्भे मौनी अमावस्यायाम् अमृत स्नानाय व्यापकी सज्जता कृता अस्ति। पुरुष क्रिकेट क्रीडायां भारत इंग्लैंड देशयोर्मध्ये द्वितीया T20 क्रीडा अद्य चेन्नई नगरस्य MA चिदम्बरम क्रीडांगणे भविता। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः MF गोल्ड प्रवाहिकातः अद्य मध्याह्ने 11:30 वादनतः भविष्यति। इति वार्ताः।